ओम नमो भगवते वासुदेवाय। अथ पञ्चमोऽध्यायः। नारद उवाच, देवदेव नमस्तेऽस्तु भूतभावनपूर्वज। तद्विजानीहि यज्ञानमात्मतत्त्वनिदर्शनम्, यद्रूपं यदधिष्ठानं यतसृष्टमिदं प्रभो, यत्संस्थं यत्परं यच्च तत्तत्त्वं वद तत्त्वतः। सर्वं येतद्भवान् वेद भूतभव्यभवत्प्रभुः। करामलकवद्विश्वं विज्ञानावसितं तव, यद्विज्ञानो यदाधारो यत्परस्त्वं यदात्मकः। एकसृजसि भूतानि भूतैरेवात्ममायया, आत्मन् भावयसेतानि न पराभावयन् स्वयम्। आत्मशक्तिमवष्टभ्य ऊर्णनाभिरिवाक्लमः, नाहं वेदपरं यस्मिन्नापरं न समं विभो। नामरूपगुणैर्भाव्यं सदसत्किञ्चिदन्यतः, स भवानचरद्घोरं यत्तपासु समाहितः। तेन खेदयसे नस्त्वं पराशङ्कां प्रयच्छसि, एतन्मे पृच्छतः सर्वं सर्वज्ञ सकलेश्वर। विजानीहि यथैवेदमहं बुद्ध्येऽनुशासितः। ब्रह्मोवाच, सम्यक् कारुणिकस्येदं वत्सते विचिकित्सितं, यदहं चोदितः सौम्य भगवद्वीर्यदर्शने। नान्द्रितं तव तच्चापि यथा मां प्रब्रवीषि भोः, अविज्ञाय परं मत्त एतावत्त्वं यतो हि मे। येन स्वरोचिषा विश्वं रोचितं रोचयाम्यहम्। यथार्कोऽग्निर्यथा सोमो यथर्क्षग्रहतारकाः, तस्मै नमो भगवते वासुदेवाय धीमहि। यन्मायया दुर्जयया मां ब्रुवन्ति जगद्गुरुं, विलज्यमानया यस्य स्थातुमीक्षापथे मुया। विमोहिता विकथन्ते ममाहमिति दुर्धियः, द्रव्यं कर्म च कालश्च स्वभावो जीव एव च। वासुदेवात्परो ब्रह्मन्न चान्योऽर्थोऽस्ति तत्त्वतः। नारायणपरा वेदा देवा नारायणाङ्गजाः, नारायणपरा लोका नारायणपरामखाः, नारायणपरो योगो नारायणपरं तपः, नारायणपरं ज्ञानं नारायणपरा गतिः। तस्यापि द्रष्टुरीशस्य कूटस्थस्याखिलात्मनः, सृज्यं सृजामि सृष्टोह मीक्षयैवाभिचोदितः। सत्त्वं रजस्तम इति निर्गुणस्य गुणास्त्रयः, स्थितिसर्गनिरोधेषु गृहीता मायया विभोः। कार्यकारणकर्तृत्वे द्रव्यज्ञानक्रियाश्रयाः, बध्नन्ति नित्यदा मुक्तं मायिनं पुरुषं गुणाः। स एष भगवान् लिङ्गैस्त्रिभिरेभिरधोक्सजः, स्वलक्षितगतिर्ब्रह्मन् सर्वेषां मम चेश्वरः। कालं कर्म स्वभावं च मायेशो मायया स्वया, आत्मन्यदृच्छया प्राप्तं विबुभूषुरुपाददे। कालाद्गुणव्यतिकरः परिणामस्वभावतः, कर्मणो जन्म महतः पुरुषाधिष्ठितादभूत्। महतस्तु विकुर्वाणाद्रजसत्त्वोपब्रह्मितात्, तमप्रधानस्त्वभवत् द्रव्यज्ञानक्रियात्मकः। सोऽहङ्कार इति प्रोक्तो विकुर्वन् समभूत्त्रिधा, वैकारिकस्तैजसश्च तामसश्चेति यद्भिदा। द्रव्यशक्तिः क्रियाशक्तिर्ज्ञानशक्तिरिति प्रभो, तामसादपि भूतादेर्विकुर्वाणादभून्नपः। तस्य मात्रा गुणः शब्दो लिङ्गं यद्दृष्टिदृश्ययोः, नभसोत विकुर्वाणादभूत् स्पर्शगुणो निलः। परान्वयाच्छब्दवांश्च प्राणोजस्सहो बलम्, वायोरपि विकुर्वाणात् कालकर्मस्वभावतः। उदपद्यत तेजो वै रूपवत् स्पर्शशब्दवत्, तेजसस्तु विकुर्वाणादासीदम्भोरसात्मकम्। रूपवत् स्पर्शवच्चाम्भो घोषवच्च परान्वयात्, विशेषस्तु विकुर्वाणादम्भसो गन्धवानभूत्। परान्वयात् रसस्पर्शशब्दरूपगुणान्वितः, वैकारिकान् मनोजज्ञे देवा वैकारिकादश। दिग्वातार्कप्रचेतोऽस्वि वह्नीन्द्रोपेन्द्रमित्रकाः, तैजसात्तु विकुर्वाणादिन्द्रियाणि दशाभवन्। ज्ञानशक्तिः क्रियाशक्तिर्बुद्धिः प्राणस्य तैजसौ, श्रोत्रं त्वग्घ्राणदृग्जिह्वा वाग्दोर्मेद्राङ्ग्रिपायवः। यदैते सङ्गताभावा भूतेन्द्रियमनोगुणाः, यदा यतननिर्माणे नशे कुर्ब्रह्मवित्तम, तदा संहत्य चान्योन्यं भगवच्छक्तिचोदिताः। सदसत्त्वमुपादाय चोभयं ससृजुर्यदः, वर्षपूगसहस्रान्ते ददण्डमुदकेशयम्। कालकर्मस्वभावस्थो जीवो जीवमजीवयत्, स एव पुरुषस्तस्मादण्डं निर्भिद्य निर्गतः। सहस्रोर्वङ्ग्रिबाह्वक्षः सहस्रानन शीर्षवान्, यस्येहावयवैर्लोकान् कल्पयन्ति मनीषिणः। कट्यादिभिरतः सप्त सप्तोर्ध्वं जगनादिभिः, पुरुषस्य मुखं ब्रह्म क्षत्रमेतस्य बाहवः। ऊर्वोर्वैश्यो भगवतः पद्भ्यां शूद्रोऽभ्यजायत, भूर्लोकः कल्पितः पद्भ्यां भुवर्लोकोऽस्य नाभितः। हृदा स्वर्लोक उरसा महर्लोको महात्मनः, ग्रीवायां जनलोकश्च तपोलोकस्तनद्वयात् मूर्धपि सत्यलोकस्तु ब्रह्मलोकः सनातनः तत्कट्यां चातलं कृत्त मूरुभ्यां वितलं विभोः जानुभ्यां सुतलं शुद्धं जङ्घाभ्यां तु तलातलं महातलं तु गुल्फाभ्यां प्रपदाभ्यां रसातलं पातालं पादतलत इति लोकमयः पुमान् भूर्लोकः कल्पितः पद्भ्यां भुवर्लोकोऽस्य नाभितः स्वर्लोकः कल्पितो मूर्ध्ना इति वा लोककल्पना। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् द्वितीयस्कन्धे पञ्चमोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिस्यादनपायिनी।